एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। भारतस्य गुर्जर राज्यस्य अहमदाबाद नगरे ह्य दुरापन्नायां वायुयान दुर्घटनायां चत्वारिंशदधिक 200 जना मृता सन्ति। ह्य अहमदाबाद नगरात् बेलायत देशस्य लण्डन नगरं प्रति प्रस्थितं एयर इण्डिया इति वायुयान संस्थायाः विमानं धावन मार्गात् उड्डयनस्य समनन्तरमेव दुर्घटितमासीत्। वायुयाने चालक दलस्य 12 जनैः सह समग्रतः 240 अधिक 200 जना आसन्निति एयर इण्डिया वायुयान संस्थायाः अधिकारिभिः ज्ञापितं वर्तते। वायुयानम् एतद् अहमदाबाद नगरस्य सघने वसति क्षेत्रे एकस्मिन् गृहे पतितं सत् दुर्घटितमासीत्। दुर्घटनानन्तरं तस्मिन् क्षेत्रे घना धूमरेखा दृष्टा आसीत् इति भारतस्य समाचार संस्थाभिः ज्ञापितं वर्तते। वायुयाने 179 भारतीय नागरिकाः, 53 बेलायत देशस्य नागरिकाः, 7 पोर्चुगल देशस्य नागरिकाः, 1 क्यानडा देशस्य नागरिकश्चेति आहत्य 240 अधिक 200 जना यात्रिण आसन्। अहमदाबाद अन्तर्राष्ट्रिय विमानस्थलस्य परिधे बहि जनानां वसति क्षेत्रे एव वायुयानं पतितम् इति भारतस्य नागरिकोड्डयन प्राधिकरणेन ज्ञापितं वर्तते। उड्डयनस्य समनन्तरमेव वायुयान चालकेन अति संकटस्य सूचना कृता आसीत्। तस्य समकालमेव वायुयानं दुर्घटितम् इति नागरिकोड्डयन महानिर्देशनालयेन ज्ञापितम् वर्तते। भारतस्य गुर्जर राज्यस्य अहमदाबाद नगरे 80 लक्षाधिक जना निवसन्ति। विमानस्थलञ्च घनावासीय क्षेत्रेण वेष्टितमस्ति। अधुना यावत् 75 संख्यका शवा प्राप्ता सन्ति। दुर्घटनायाम् आहतानाम् उपचार जायमान अस्ति चेत् उद्धारस्य अन्वेषणस्य च कार्यम् जायमानम् अस्ति इति च भारतस्य संचार साधने सूचितमस्ति। दुर्घटनाया कारणम् अधुना यावत् किम् अस्तीति स्पष्टीभूतम् नास्ति। अत्रान्तरे नेपाल सर्वकारेण भारतस्य अहमदाबाद स्थानात् बेलायत देशस्य लण्डन नगराय 42 अधिक 102 जनान् आरोह्य प्रस्थितम् एयर इण्डिया वायुयान संस्थायाः यात्रीवाहक विमानस्य भूतां दुर्घटनां प्रति दुःखं व्यक्तं वर्तते। परराष्ट्र मन्त्रालयेन विज्ञप्तिं प्रकाश्य दुर्घटनायां त्यक्त प्राणान् जनान् प्रति श्रद्धाञ्जलिं प्रकटयता आहतानां जनानां शीघ्र स्वास्थ्य लाभस्य कामना विहिता अस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन भारतस्य गुर्जर राज्यस्य अहमदाबाद नगरे दुरापन्नां वायुयान दुर्घटनां प्रति दुःखं प्रकटयता मृतकेभ्य श्रद्धाञ्जलिः समर्पितोऽस्ति। ह्य एक्स इति सामाजिक सञ्जालस्य माध्यमेन राष्ट्रपतिना पौडेलेन दुर्घटनायाः कारणेन भूताम् अमूल्य मानवीय क्षतिं प्रति गभीरं दुःखं प्रकटयित्वा शोक सन्तप्तेभ्यः परिवारजनेभ्यः समवेदनां च प्रकटयित्वा आहतानां स्वास्थ्यलाभस्य कामना च कृता वर्तते। प्रतिपक्षी दलानां विरोधस्य कारणेन प्रतिनिधिसभायाः ह्यस्तनोपवेशोऽपि कार्यसूच्यां प्रवेशेन विनैव स्थगितोऽस्ति। पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रम् अभियाच्य राष्ट्रिय स्वतन्त्र दलेन सह विपक्षि दलानां सांसदैः विरोधस्य ज्ञापनानन्तरं उपवेशः कार्यसूच्यां प्रवेशेन विनैव स्थगितीकृतोऽस्ति। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा 1 निर्धारितो वर्तते। बाजुरा जनपदस्य हिमाली ग्रामपालिकायाः धीमक ग्रामे विद्युत सेवा प्राप्ता अस्ति। ग्रामपालिकायाः बृहत् ग्रामत्वेन विद्यमाने धीमक ग्रामे प्रथमवारं विद्युतः प्रकाशे प्राप्तेः स्थानीयैः बहुभिः वर्षैः दृष्टः विद्युतः प्रकाशस्य स्वप्नः सफलीभूतोऽस्ति। हिमाली ग्रामपालिकायाः सहयोगेन संचालितायाः कुवाडी खोलिका जलविद्युत आयोजनायाः विद्युत मार्गस्य विस्तारेण सहैव 6 क्षेत्रस्य धीमक ग्रामे विद्युत सेवा प्रापिता अस्ति। विद्युत सेवया धीमक ग्रामस्य 73 संख्यातानां गृहाणाम् आसन्न 14 जनाः लाभान्विताः सन्ति। पृथ्वी राजमार्गान्तर्गते मुगलिन मलेखु मार्गखण्डे रात्रौ यातायात साधनानां सञ्चालनम् अवरुध्य स्तरोन्नतेः कार्यं विधास्यते। अद्यतः आगामिनः आषाढमासस्य 7 दिवसं यावत् रात्र्यां यातायात साधनानि अवरुध्य स्तरोन्नतेः कार्यं विधास्यते। मार्गखण्डस्य बारबाङ खोलिकायां, मोवा खोलिकायां, खटौती खोलिकायां, गोमती खोलिकायां च सेतोः निर्माणस्य कार्यं सञ्चाल्यमानम् अस्तीत्यतः यातायात साधनानां सञ्चालनं पिधीयमानमस्तीति नागडुंगा मुगलिन मार्गायोजनायाः पश्चिमखण्डस्य प्रमुखः केदार प्रसाद नेपालः असूचयत्। प्रधानमन्त्री केपी शर्मा ओली शिक्षाम् आधुनिक प्रविधि युक्ताम् जीवनोपयोगिनीम् वृत्ति सर्जन क्षेमांश कर्तुम् बलम् दत्तवान् अस्ति। ह्यः बालुवाटार वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने काठमाण्डू विश्वविद्यालय सभायाः एकोनशततमे उपवेशे सम्बोधनम् कुर्वता काठमाण्डू विश्वविद्यालयस्य कुलपतिना च प्रधानमन्त्रिणा ओलिना वृत्तेः सर्जनाय तदनुकूल जनशक्तेः उत्पादनाय च विश्वविद्यालयेन ध्यानम् देयम् भवतीति उक्तमासीत्। प्रधानमन्त्रिणा ओलिना स्वास्थ्य शिक्षायाम् अन्येष् विषयेष् च विद्यार्थिनां प्राप्तिं वर्धयितुं विशेष योजना निर्मातव्या भवतीति च उक्तमासीत्। सभायाः उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा विश्वविद्यालयस्य सहकुलपतिना च रघुजी पन्थेन शिक्षाक्षेत्रस्य सुधाराय रूपान्तरणाय च मन्त्रालयस्य पक्षतः प्रयासः विधीयते इत्युक्तमासीत्। उपवेशेन विश्वविद्यालयस्य कुलसचिवेन प्राध्यापकेन डा राजीव श्रेष्ठेन प्रस्तुतः आगामिनः आर्थिकवर्षस्य आयव्ययकेन सहितः कार्यक्रमः स्वीकृताश्च सन्ति। राष्ट्रियसभायाः विधायन व्यवस्थापन समितौ काश्चिन् नेपालादि नियमान् संशोधयितुं निर्मितं विधेयकम् आधृत्य प्रकरणगतं विमर्शनं सञ्चलदस्ति। समितेः स्थनोपवेशे काश्चिन् नेपालादि नियमान् संशोधयितुं निर्मिते विधेयके विद्यमानानां वैदेशिक वृत्त्युपार्जनाधिनियमस्य, वैद्युत नियमन सम्बद्धाधिनियमस्य च विषये विमृष्टमस्ति। विमर्शने सांसदः प्रतिवेशिनी राष्ट्रिय भारते कार्यं कुर्वतः श्रमिकान् सामाजिक सुरक्षा कोषेष् आबद्धान् विधातुं विधि व्यवस्थायाः आवश्यकता अस्तीति कथयन्तः अधिनियमे समावेष्टुं प्रस्तावम् अकुर्वन्। अस्य वर्षस्य वर्षा प्रणाली कोशी प्रदेशात् नेपाले प्रविष्टा अस्ति। जलवायु पूर्वानुमान महाशाखायाः अनुसारेण ह्यस्तना दिवसात् वर्षा प्रणाली कोशी प्रदेशात् नेपालं प्रविष्टा वर्तते। सम्प्रति कोशी प्रदेशे प्रविष्टा वर्षा प्रणाली आराशं प्रसरणाय कश्चन समय लगिष्यति। वर्षा प्रणाल्याः प्रवेशनेन सहैव देशस्य बहुषु भागेषु वृष्टि जायमाना अस्ति। राष्ट्रियसभायाः संघीयता सबलीकरण सम्बद्धता समित्या समितितः प्रदत्तानां निर्देशनानां क्रियान्वयनाय वन वातावरण मन्त्रालयस्य ध्यानाकर्षणं विहितं वर्तते। समित्या ह्यः वन वातावरण मन्त्रालयाय एतत्पूर्वं प्रदत्तस्य निर्देशनस्य क्रियान्वयनस्य अवस्थायाः विषये विमर्शनं कृत्वा वन मन्त्रालयः निर्देशनस्य क्रियान्वयनाय पुनः अनुरुद्धो वर्तते। विमर्शने वन वातावरण मन्त्री ऐनबहादुर शाही ठकुरी स्वदेशस्य काष्ठानाम् उपयोगं वर्धयितुं सहजीकरणस्य विभिन्नानां नीति रणनीतिनां निर्माणस्य कार्यम् अग्रे वर्धितमस्तीति असूचयत्।